स्वस्ति मन्त्रास्ताः सत्याः सवलास्त्वन्दिरिभवन्तो महान्तो न गृह्णन्तो अस्य वडोच्छवेदोक्तं दीर्घमायुष्यं भूयास्तामिति भवन्तो महान्तो न गृह्णन्तो उपनयन ब्रह्मोपदेश आशीर्वाद कल्याणमुहूर्तस्तु मुहूर्तोऽस्ति भवन्तो महान्तो न गृह्णन्तो लग्नापेक्षया आदित्यानां नवानां गृहाणां सुखम् आनुकूल्यं सिद्धिर्भूयास्तामिति भवन्तो महान्तो न गृह्णन्तो ये ये गृहाः सुवेदरस्थाने स्थिताः तेषां गृहाणाम् आनुकूल्यं सिद्धिर्भूयादि भवन्तो महान्तो न गृह्णन्तो ये ये गृहाः शुभस्थाने स्थिताः तेषां गृहाणाम् अद्यन्त अतिशय शुभफलप्रदात्वसिद्धिर्भूयादिभवन्तो महान्तो न गृह्णन्तो अयं वडुः प्रातःसाडसन्ध्यावन्दनसंहितादानभिक्षान्तरभोजनकटिसूत्रकौबीनमेघलाजितदण्डधारणब्रह्मयज्ञवेदाध्यायनेषु सिद्धवान् भूयादिभवन्तो महान्तो न गृह्णन्तो अयं वडुः व्यासैव पुराणेषु पाणिनिरिव व्याकरणे घनादैव तर्के झमिणीव मीमायां कपिलविव साङ्ख्यशास्त्रे इव न्यायदर्शने शुक्रयुव काव्ये जनदैव समृद्धौ जनक इव तत्त्वज्ञाने प्रह्लादैव तौ हरिश्चन्द्र इव सत्यवसने भीष्म इव ब्रह्मचर्ये मार्गण्डे इव दीर्घायुष्वान् भूयादिति भवन्तो महान्तो न गृह्णन्तो अनयोर्तम्बत्योः कुमारच्च आयुर्बलं यशो वर्चत्पसवस्थैर्यं सिद्धिर्लक्ष्मीः समाकान्तिः सद्गुणा आनन्दो नित्योत्सवनित्यस्यमङ्गलमित्येषां सर्वदा वृद्धिर्भूयादि भवन्तो महान्तो न गृह्णन्तो सर्वे जनाः सुखिनो भवन्तु समस्सन्मङ्गलानि सन्तु उत्तरोत्थाभिवृद्धिरस्तु सदमानं भवति सदा आयुःपुरुषः सदेन्द्रियायुः सेवेन्द्रिये प्रतिष्ठति।